यान्ति लोहिति मानम भ्रतटिनि धातुश्चटा कर्दमैः भान्ति बालक बस्ति मालिकिरणैः मेघावली शारदी बिम्बुष्टद्युतिपुञ्ज चुम्बनकला श्रोणायमानेने ते कामाक्षि स्मितरोचिषा समदशः मारुडुमाकाङ्क्षते श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकम् नेत्रानन्दकरं तथा हिमकरः गच्छेत्यथा तिग्मताम् शीतं देवि तथा यथा हिमजलं सन्तापमुद्रास्पदम् श्वेतं किं च तथा यथा मलिनतां दत्ते च मुक्ता मणिः त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपम् सन्तसन्ततमानयन्त्यमलतां तल्लक्षणं लक्ष्यते अस्माकं न धुनोति तापमधिकं धुनोति नाभ्यन्तरं द्वान्तं तत् खलु दुःखिनो वयमिदं केनेति नो विद्महे नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षिरागेण ते बन्धुकप्रसवश्रियं जितवतः बंहीयसीं तादृशी बिम्बोष्टस्य रुचिं निरस्य हसितः ज्योत्स्नावयस्यायते मुक्तानां परिमोचनं विदधतः तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमरुतः तत्पालनं तन्वती उद्भूतस्य जलान्तरात् अविरतं तद्दूरतां जग्मुषी कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते।